हरि हरि वासुदेवाय ॐ नमो भगवते वासुदेवाय शुक्लां वरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभांगं लक्ष्मीकांतं कमलनयनं योगिविद्यानगम्यं वंदे विष्णुं भवभयहरं सर्वलोकैकनाथम् अथ श्री विष्णु सहस्त्रनाम स्तोत्रम् यस्य स्मरण मात्रेण जन्म संसार बंधना विमुच्यते नमस्तस्मै विष्णवे प्रभ विष्णवे नमः समस्त भूतानां आदिभूताय भूभृते अनेक रूप रूपाय विष्णवे प्रभ विष्णवे श्री वैशंपायन उवाच श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत श्रीयुधिष्ठिर उवाच किमेकं दैवतं लोके किं वाप्येकं परायणं स्तुवन्तः कं कमर्चन्तः प्राप्नुर्यो मानवः शुभम् को धर्मः सर्वधर्माणां भवतः परमो मतः किं जपन्मुच्यते जन्तुर्जन्म संसारबन्धनात् श्रीभीष्म उवाच जगत्प्रभुं देवदेवम् अनन्तं पुरुषोत्तमं स्तुवं नाम सहस्त्रेण पुरुषः सततोत्थितः तमेव चार्चयन् नित्यं भक्त्या पुरुषमव्ययं ध्यायन् स्तुवं नमस्यश्च यजमानस्तमेव च अनादिनिधनं विष्णुं सर्वलोकमहेश्वरं लोकाध्यक्षं स्तुवं नित्यं सर्वदुःखातिगो भवे ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनं लोकनाथं महद्भूतं सर्वभूतभवोद्भवं एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा परमं यो महत्तेजः परमं यो महत्तपः परमं यो महद्ब्रह्म परमं यः परायणम् पवित्राणां पवित्रं यो मंगलानां च मंगलम् दैवतं देवतानां च भूतानां यो व्ययपिता यतः सर्वाणि भूतानि भवन्त्यादि युगागमे यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये तस्य लोकप्रधानस्य जगन्नाथस्य भूपते विष्णोर्नाम सहस्रं मे शृणु पाप भयापहम् यानि नामानि गौणानि विख्यातानि महात्मनः ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ओम विश्वं विष्णुर्वषट्कारो भूतभव्यः भवत्प्रभुः भूतकृत् भूतभृद्भावो भूतात्मा भूतभावनः भूतात्मा परमात्मा च मुक्तानां परमागतिः अव्ययः पुरुषः साक्षी शत्रोज्ञः शर एव च योगो योगविदां नेता प्रधान पुरुषेश्वरः नारसिंह वपुः श्रीमान् केशवः पुरुषोत्तमः सर्वः शर्वः शिवस्ताणु भूतादि निधिरव्ययः संभवो भावनो भर्ता प्रभवः प्रभुरीश्वरः स्वयंभू शंभुरादित्यः पुष्कराक्षो महास्वनः अनादि निधनो धाता विधाता धातुरुत्तमः अप्रमेयो हृषीकेशः पद्मनाभो मरप्रभुः विश्वकर्मा मनुस्त्वष्टा स्थविष्ठस्थविरोध्रुवः अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः प्रभूतस्त्रीककूधाम पवित्रं मंगलं परम् ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ईश्वरो विक्रमी धन्वी मेधावी विक्रमक्रमः अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् सुरेशः शरणं शर्म विश्वरेतः प्रजाभवः अह संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः वृषाकपीरमय्यात्मा सर्वयोगविनिस्मृतः वसुर्वसुमनः सत्यः समात्मा सम्मितः समः अमोघपुण्डरीकाक्षो वृषकर्मा वृषाकृतिः रुद्रो बहुशिरा बभ्रू विश्वयोनिः शुचिश्रवः अमृतः शाश्वतस्थाणुर्बरारोहो महातपः सर्वगः सर्वविद्वानुर्विश्वक्सेनो जनार्दनः वेदो वेदविदव्यङ्गो वेदाङ्गो वेदविद्कविः लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः चतुरात्मा चतुर्व्यूहश्चतुर्द्रष्टः चतुर्भुजः भ्राजिष्णु भोजनं भोक्ता सहिष्णुर्जगदादिजः अनघो विजयो जेता विश्वयोनिः पुनर्वसुः उपेन्द्रो वामनः प्रांशुरमोघः शुचिरुज्जितः अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः वेदो वेद्यः सदा योगी वीरः माधवो मधु अतीन्द्रियो महामाहो महोत्साहो महाबलः महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः अनिर्देश्य बपुः श्रीमान् मये आत्मा महादिदृक् महेश्वासो मही भर्ता श्रीनिवासः सतां गतिः अनिरुद्ध सुरानन्दो गोविन्दो गोविदांपतिः मरीचिर्दमनोहंसः सुपर्णो भुजगोत्तमः हिरण्यनावः सुतपः पद्मनावः प्रजापतिः अमृत्युः सर्वदृक्सिंहः संघाता संधिमान् स्थिरः अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिः गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः निमिषो निमिषः स्रग्वी वाचस्पतिरुदारधिः अग्रणी ग्रामणी श्रीमान् न्यायो नेता समीरणः सहस्र मूर्धा विश्वात्मा सहस्राक्षः सहस्रपाद आवर्तनो निवृत्तात्मा संवृतः संप्रमर्दनः अह संवर्तको बन्महि रनिलो धरणीधरः सुप्रसादः प्रसन्नात्मा विश्वधृत् विश्वभृग्विभुः सत्कर्ता सत्कृतः साधु जन्मो नारायणो नरः असंख्येयो प्रमेयात्मा विशिष्टः शिष्टकृच्छचिः सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः वृषा ही वृषभो विष्णु वृषपर्वा वृषोदरः वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः नैकरूप बृहद्रूपः शिपिविष्टः प्रकाशनः ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः रुद्धस्पष्टाक्षरो मंत्र चंद्रासु भास्करो द्युतिः अमृतांशुद्भवो भानुः शशबिन्दुः सुरेश्वरः औषधं जगतः सेतुः सत्यधर्म पराक्रमः भूतभव्य भवन्नाथः पवनः पावनो नलः कामः कामकृत्कान्तः कामः कामप्रदः प्रभुः युगादिकृत्युगावर्तो नैको मायो महाशनः अदृश्य व्यक्तरूपश्च सहस्रजित् अनन्तजित् इष्टो विशिष्टः शिष्टेष्ठः शिखण्डी नहुषो वृषः क्रोधः क्रोधकृत्कर्ता विश्ववाहू महीधरः अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः अपाम्निधिरधिष्ठान मप्रमत्तः प्रतिष्ठितः स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः वासुदेव बृहद्भानु आदिदेवः पुरन्दरः अशोकस्तारणस्तारः शूरः शौरिजनीश्वरः अनुकूलः शतावर्तः पद्मी पद्मनिवेक्षणः पद्मनाभोरविन्दाक्षः पद्मगर्भः शरीरभृत् महर्दिरुद्धवृद्धात्मा महाक्षो गरुडध्वजः अतुलः शरभो भीमः समयज्ञो हविर्हरिः सर्वलक्षणलक्षण्यो लक्ष्मीवान् संमितिञ्जयः विक्षरो रोहितो मार्गो हेतुर्दामोदरः सः महीधरो महाभागो वेगवान् मिताशनः उद्भवः क्षवणो देवः श्रीगर्वः परमेश्वरः करणं कारणं कर्ता विकर्ता गहनो गुहः व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः परर्धि परमस्पष्ट स्तुष्टः पुष्टः शुभेक्षणः रामो विरामो विरजो मार्गो नेयो नयो नयः विरह शक्ति मतां श्रेष्ठो धर्मो धर्म विदुत्तमः वैकुंठः पुरुषः प्राणः प्राणदः प्रणवपृतुः हिरण्यगर्भ शत्रुघ्नो व्याप्तो वायुरदोक्षजः ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रह उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः विस्थारस्थावरस्थाणुः प्रमाणं विजमव्ययम् अर्थो नर्थो महाकोशो महाभोगो महाधनः अनिर्विण्णः स्थविष्ठो भू धर्मयूपो महामखः नक्षत्रनेमि नक्षत्रि क्षमः क्षामः समीहनः यज्ञ इज्व महेजश्च क्रतुः सत्रं सतां गतिः सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सृहृत् मनोहरो जितक्रोधो वीरवाहुर्विदारणः स्वापनः श्वावशो व्यापी नैकात्मा नैककर्मकृत् वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः धर्मकृद्धर्मी सदशक्षरमक्षरम् अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः गभस्तिनेमि सत्त्वस्थः सिंहो भूतमहेश्वरः आदिदेवो महादेवो देवेशो देवभृद्गुरुः उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः शरीर भूतभृद्भोक्ता कपिन्द्रो भूरि दक्षिणः सोमपो मृतपः सोमः पुरोचित् पुरुषोत्तमः विनयो जय सत्यसन्धो दाशाः सात्वताम्पतिः जीवो विनयिता साक्षी मुकुन्दो मितविक्रमः अम्भोनिधिरनन्तात्मा महोदधीशयन्तकः अजो महाहसोभाव्यो जितमित्रः प्रमोदनः आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् महावराहो गोविन्दः शुषेणः कनकाङ्गदि गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः वेदाश्वाङ्गर्जितः कृष्णो दृढसङ्कर्षणच्युतः वरुणो वारुणो वृक्षः पुष्कराक्षो महामनः भगवान् भगहानन्दी वनमाली हलायुधः आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः सुधन्वाखण्डपरशूर् दारुणोद्रविणप्रदः दिविक्स्पृक्सर्वदृग्व्यासो वाचस्पतिरयोनिजः त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् सन्न्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः अनिवर्ती निवृत्तात्मा संक्षेप्ताक्षमकुच्छिवः श्रीवत्सवक्षः श्रीवासः श्रीपतिः श्रीमताम्बरः श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः श्रीधरः श्रीकरः श्रेयः श्रीमां लोकत्रयाश्रयः स्वक्षः स्वंगशतानंदो नंदिर्ज्योतिर्गणेश्वरः विजितात्मा विधेयात्मा सत्कीर्ति छिन्न संशयः उदीर्णः सर्वतश्चक्षुरनिशः शाश्वतस्थिरः भूषयो भूषण भूतिर्विशोकः शोकनाशनः अर्चिस्मानर्चितः कुम्भो विशुधात्मा विशोधनः अनिरुद्ध प्रतिरथः प्रद्युम्नो मितविक्रमः कालनेमी निहावीरः शौरिः शूरजनेश्वरः त्रिलोकात्मा त्रिलोकेशः केशवः केशिहारी कामदेवः कामपालः कामिकान्तः कृतागमः अनिर्देश्य वपुर्विष्णुर्विरनन्तो धनञ्जयः ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्मब्रह्मविवर्धनः ब्रह्मविद्ब्राह्मणो ब्रह्मी ब्रह्माज्ञो ब्राह्मणप्रियः महाक्रमो महाकर्मा महातेजा महोरगः महाक्रतुर्महायज्वा महायज्ञो महाहविः स्तभ्यः स्तव प्रियः स्तोत्रम् स्तुतिः स्तोता रणप्रियः पुण्यः पुरयिता पुण्यः पुण्यकीर्तिरनामयः मनोजवस्तीर्थकरो वसुरेता वसुप्रदः वसुप्रदो वासुदेवो वसुर्वसुमनाहविः सद्गति सत्कृति सत्ता सद्बुद्धि सत्परायणः शूरसेनो यदुश्रेष्ठः सन्निवासः श्रियामुनः भूतावासो वासुदेवः सर्वासु निलयो नलः दर्पः दर्पदो दृप्तो दुर्धरथा पराजितः विश्वमूर्ति महामूर्ति दिव्यमूर्तिरमूर्तिमान् अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः एको नैकः सवः कः किं यत्तत्पदं मनुत्तमम् लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः सुवर्णो वर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदिः विरहा विषमः शून्यो धृताशीरश्चलश्चलः अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् सुमेधा मेधजो धन्यः सत्यमेधाधराधरः तेजवृषोद्युतिधरः सर्वशस्त्रभृताम्बरः प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः चतुरात्मा चतुर्भावश्चतुर्वेद विदेकपात् समावर्तो निवृत्तात्मा दुर्जयो दुरतिक्रमः दुर्लभो दुर्गमो दुर्गो दुरावासो दुरार्या शुभांगो लोकसारंगः सुतन्तुस्तन्तुवर्धनः इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः उद्भव सुंदर सुंदो रत्ननावः सुलोचनः अर्को वाजसन श्रृंगी जयन्तः सर्वविद्यै सुवर्ण बिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः महाहृदो महागर्तो महाभूतो महानिधिः कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनो निलः अमृतांश्मृतवपुः सर्वज्ञः सर्वतोमुखः सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः न्योग्रो धन्दुम्बरश्वस्थः चाणुरान्ध्रनिषूदनः सहस्रार्चिः सप्तजीवः सप्तैधा सप्तवाहनः अमूर्तिरनघोचिन्त्यो भयकृद्भयनाशनः अणुर्बृहत्कृशः स्थूलो गुणर्भुर्निर्गुणो महान् अद्रुतः स्वधृतः स्वायः प्राग्वंशो वंशवर्धनः भारभृत्कथितो योगी योगिशः सर्वकामदः आश्रम श्रमण श्याम सुपर्णो वायुवाहन धनुर्धरो धनुर्वेदो दंडो दम इता दम अपराजितः सर्वसहो नियंता नियमो यमः। सत्ववान् सात्विकः सत्यः सत्यधर्मपरायणः अभिप्रायः प्रियार्होर्हः प्रियकृत्कृतिवर्धनः विहाय सत्यतिर्ज्योतिः सुरुचिद्भुतभुग्विभुः रविर्विरोचनः सूर्यः सवितारविलोचनः अनन्तो भूतभोक्ता सुखदो नैकजोग्रजः अनिर्विण्णः सदामर्षि लोकाधिष्ठानमद्भुतः सनात् सनातनतमः कपिलः कपिरप्ययः स्वस्तिदः स्वस्तिकृत् स्वस्ति स्वस्ति भृग् स्वस्ति दक्षिणः अरौद्रः कुण्डली चक्री विक्रमोपवर्जितशासनः शब्दातिगः शब्दसः शिशिरः सर्वरीकरः अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणाम्बरः विदुत्तमो वितभयः पुण्यश्रवणकीर्तनः उत्तारणो दुष्कृतिः पुण्यो दुःस्वप्ननाशनः विरहारक्षणः सन्तो जीवनः पर्यवस्थितः अनन्तो रूपनन्तश्रीजितमन्योभयापः चतुरस्रो गभीरात्मा विदिशो व्यादिशो दिशः अनादि भूर्भुवो लक्ष्मी सुवीरो रुचिराङ्गदः जननो जनजन्मादिर्भीमो भीमपराक्रमः आधारनिलयो धाता पुष्पहासः प्रजागरः ऊर्ध्वगः सत्प्रथाचारः प्राणदः प्रणवपणः प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः भूर्भुवस्वस्तरुस्तारः सविता प्रपितामहः यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभृद् यज्ञसाधनः यज्ञान्तकृत् यज्ञगुह्यं मन्नमन्नाद एव च आत्मयोनिः स्वयं जातो वैखानः सामगायनः देवकी नन्दन स्रष्टा क्षितीशः पापनाशनः शङ्ख भृनन्दकी चक्री सार्गधन्वा गदाधरः रथाङ्ग पाणिरक्षभ्यो सर्वप्रहरणायुधः सर्वप्रहरणायुधः ॐ नम इति। इतीदं कीर्तनीयस्य केशवस्य महात्मनः नाम्नां सहस्रदिव्यानाम् अशेषेण प्रकीर्तितं य इदं शृणुया नित्यं यश्चापि परिकीर्तये नाशुभं प्राप्नुयात् किञ्चित् सोमुत्रेह च मानवः वेदान्तगो ब्राह्मणस्यात् क्षत्रियो विजयी भवेत् वेश्यो धनसमृद्धस्यात् शूद्रः सुखमवाप्नुयात् धर्मार्थी प्राप्नुयात् धर्मम् अर्थार्थी चार्थमाप्नुयात् कामान् वाप्नुयात् कामी प्रजार्थी प्राप्नुयात् प्रजाम् भक्तिमान् यः सदोत्थाय शुचित्सत्सद्गतमानसः सहस्रं वासुदेवस्य नाम्नामेतत् प्रकीर्तये यशः प्राप्नोति विपुलं ज्ञाति प्राधान्यमेव च अचलां श्रियमाप्नोति श्रेयप्राप्नत् तनुत्तमं न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति भवत्यरोगद्युतिमान् बलरूपगुणान्वितः रोगार्तमुच्यते रोगात् बन्धो मुच्यते बन्धनात् भयान्मुच्यते भीतस्तु मुच्यतापन आपदः दुर्गाण्यतीतरत्याशु पुरुषः पुरुषोत्तमम् स्तुवं नाम सहस्त्रेण नित्यं भक्तिं समान्वितः वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः सर्वपाप विशुद्धात्मा याति ब्रह्म सनातनम् न वासुदेव भक्तानां शुभं विद्यते क्वचित् जन्म मृत्यु जरा व्याधि भयं नैवोपजायते इमं स्तवम धियानः श्रद्धा भक्ति समान्वितः युज्यतात्मा सुख श्रांति श्रीधुति स्मृति कीर्तिवे न क्रोध न च मात्सर्यं न लोभ न शुभा मतिः भवन्ति कृत पुण्यानां भक्तानां पुरुषोत्तमे द्योश चंद्रार्क नक्षत्राखं दिशोर्भूमहोदधि वासुदेवस्य वीर्येण विद्रुतानि महात्मनः ससुरासुर गंधर्वं सयक्षोरगराक्षसं जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् इंद्रियाणि मनो बुद्धि सत्वं तेजो बलं धृतिः वासुदेवात्मकान्याहु क्षेत्रं क्षेत्रज्ञ एव च सर्वागमानमाचारः प्रथमं परिकल्पये आचार प्रभवो धर्मो धर्मस्य प्रभुरच्युतः ऋषयो पितरो देवा महाभूतानि धातवः जंगमा जंगमं चेदं जगत नारायणोद्भवं योग ज्ञानं तथा सांख्यं विद्या शिल्पादि कर्म च वेद्या शास्त्राणि विज्ञानं एतत् सर्वं जनार्दन एको विष्णुर्महद्भूतं पृथक् भूतान्यनेकशः त्रिलोकान् व्याप्य भूतात्मा भुक्ते विश्वभुव्ययः इमं स्तवं भगवतो विष्णुर्व्यासेन कीर्तितं पठेद् यच्छेत् पुरुषः श्रेय प्राप्तुं सुखानि च विश्वेश्वरं मजं देवं जगतः प्रभवाप्ययम् भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् श्रीराम राम रामेति रमे रामे मनोरमे सहस्रनाम तत्तुल्यं राम नाम वरानने श्रीराम राम रामेति रमे रामे मनोरमे सहस्रनाम तत्तुल्यं राम नाम वरानने श्रीराम राम रामेति रमे रामे मनोरमे सहस्रनाम तत्तुल्यं राम नाम वरानने ओम तत्सदिति श्री महाभारते शतशाह्यस्त्रायां संहितायां वैयासिकायां मानुशासनिके पर्वाणि भीष्म युधिष्ठिर संवादे श्री विष्णुर्दिव्य सहस्रनाम स्तोत्रं संपूर्णम्।